इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः ललितमोहनः तिवारी। आदौ मुख्य वार्ताः। प्रधानमन्त्री श्री नरेन्द्र मोदी भूटान नरेशेण चतुर्थ ड्रुक ग्याल्पो इत्यनेन सह कालचक्र शक्तिकरण समारोहस्य उद्घाटनम् अकरोत्। सहैव भूटान देशस्य द्विदिवसीया राजकीया यात्रां समाप्य स्वदेशं प्रति समागतः। राष्ट्रपतिः द्रौपदी मुर्मुः अद्य गैबोरोन नगरे बोत्सवाना देशस्य राष्ट्रपतिना डुमा बोको इत्यनेन सह विस्तृत विशेष चर्चां कृतवती। विदेशमन्त्री डॉ जयशंकरः प्रोक्तवान् यत् भारत कनाडा चोभयो देशयो मध्ये पारस्परिक सम्बन्धाः सुदृढा भवेयुः इति। सः स्वसमकक्षीयैः जी सप्त देशानां विदेशमन्त्रिभिः सह मेलनम् अपि कृतवान्। अपि च अद्य प्रातः अभिनेता धर्मेन्द्रः चिकित्सालयात् स्वगृहं प्रति समागतः। प्रधानमन्त्रिणः नरेन्द्रमोदिनः भूटानदेशस्य द्विदिवसीया राजकीया यात्रा सफला जाता। यात्रावधौ प्रधानमन्त्री श्रीनरेन्द्रमोदी भूटाननरेशेण चतुर्थ ड्रुक ग्याल्पो इत्यनेन सह कालचक्र शक्तिकरण समारोहस्य उद्घाटनम् अकरोत्। एकस्मिन् सामाजिक सञ्जालीय सन्देशे प्रधानमन्त्री अवदत् यत् परमपावन जे खेम्पो महोदयेन अस्य समारोहस्य अध्यक्षता कृता, येन कार्यक्रमोऽयम् इतोऽपि विशिष्टः सञ्जातः। कालचक्र शक्तिकरणम् एकं महत्वपूर्णं बौद्ध अनुष्ठानम् अस्ति। एतत् तावत् वैश्विक शान्ति प्रार्थना महोत्सवस्य अंशः अस्ति, यश्च विश्वेभ्यः बौद्ध विद्वांसः श्रद्धालवः च एकत्रिताः सन्ति। इतः पूर्वम् अद्य श्रीमोदी भूटानस्य चतुर्थ नरेशेण जिग्मे सिंगे वांचुक इत्यमुना सह मेलनं कृतवान्। हिमालयी राष्ट्रस्य स्वीय यात्राया प्रथमे दिने प्रधानमन्त्री नरेन्द्रमोदी भूटानस्य ऊर्जा परियोजनानां वित्तपोषणाय 4,000 कोटि रूप्यकाणां ऋणसहायतां घोषितवान्। एषा घोषणा ह्यः थिम्पू नगरे भूटान नरेशेण सह तस्य गोष्ठ्याः परम् अभवत्, यत्र द्वावपि नेतारौ परस्परहितस्य क्षेत्रीय वैश्विक विषयेषु चर्चाम् अकुरुताम्। प्रधानमन्त्री नरेशो च संयुक्तरूपेण 20,000 मिताया पुनत्सांगछु द्वितीय जलविद्युत परियोजनाया उद्घाटनम् अकुरुताम्। एतत् भारत भूटान ऊर्जा सहयोगे एक महत्वपूर्ण पदक्रम वर्तते।
भारत और भूटान की प्रगति और समृद्धि एक दूसरे से जुड़े हुए हैं और इसी भावना से भारत सरकार ने पिछले वर्ष भूटान के 5-year plan के लिए 10,000 करोड़ रुपीज सहयोग की घोषणा की थी। ये फंड रोड से लेकर एग्रीकल्चर तक, फाइनेंस से लेकर हेल्थ केयर तक, ऐसे हर सेक्टर में उपयोग हो रहा है, जिससे भूटान के नागरिकों की ईज ऑफ लिविंग बढ़ रही है।
उभाभ्यामपि नेतृभ्यां द्विपक्षीय सम्बन्धान् दृढीकर्तुं नवीनीकरण ऊर्जा क्षेत्रे, मानसिक स्वास्थ्य सेवा क्षेत्रे तथा स्वास्थ्य सेवा क्षेत्रे च त्रयाणां सन्धिज्ञापकानां आदान प्रदानं कृतम्। भूटानरेशेण दिल्ली लालकिलायां सञ्जाते विस्फोटे पीडितानां कृते सहस्रशहि भूटानी नागरिकैः सह प्रार्थना सभाया नेतृत्वं कृतम्। प्रधानमन्त्री श्रीनरेन्द्रमोदी स्वकीयेन भूटानी समकक्षेण दाशो शेरिंग तोबगे इत्यमुना सह अपि अमिलत्। द्वावपि नेतारौ 1,200 मेगावाट मितस्य पुनत्सांगछु प्रथम जलविद्युत परियोजनाया मुख्य सेतुबन्धे पुनः कार्य प्रारम्भस्य स्वागतम् अकुरुताम् तथा तस्य समयबद्धं समापनं सुनिश्चेतुं सहमतिं व्यक्तवन्तौ। इयं भारत भूटानाभ्यां संयुक्तरूपेण विकसिता बृहत्तमा जलविद्युत परियोजना भविष्यति। प्रधानमन्त्री इदानीं स्वदेशं प्रत्यागतः वर्तते। राष्ट्रपतिः द्रौपदी मुर्मुः अद्य गैबोरोन नगरे बोत्सवाना देशस्य राष्ट्रपतिना डुमा बोको इत्यनेन सह द्वैपाक्षिकं वार्तालापं कृत्वा परस्परहितस्य विस्तृतविशेषु चर्चां कृतवती। व्यापार निवेशे, कृषौ, पुनर्नवीनीकरण ऊर्जायां, स्वास्थ्ये, शिक्षायां, कौशलविकासे, रक्षणे, डिजिटल प्रौद्योगिक्याम् एतादृशेषु प्रमुखेषु क्षेत्रेषु सहयोगं वर्धयितुं विस्तृतचर्चासु उभय नेतृभ्यां सहमति प्रकटिता।
We reaffirm the deep and friendly ties between India and Botswana, founded on shared democratic values and mutual respect. We agreed to expand cooperation in key sectors, including trade and investment, agriculture, renewable energy, health, education, skill development, defense, and digital technology.
अंगोला देशस्य प्रवासं समाप्य राष्ट्रपतिः मुर्मू अफ्रीका महाद्वीपस्य द्विराष्ट्रिय यात्रायाः अन्तिमे चरणे गतरात्रौ बोत्सवानादेशं गतवती। सामाजिक अन्तर्जालीय सन्देशे राष्ट्रपतिः मुर्मू चीता परियोजनायाः अग्रिमचरणस्य अन्तर्गतं भारतं प्रति व्याघ्राणां प्रेषणार्थं राष्ट्रपतिं बोंको तथा बोत्सवाना देशस्य जनेभ्यः धन्यवादं प्रकटितवती। अस्मिन् अवसरे बोत्सवाना देशस्य नागरिकाणां कृते उच्च गुणवत्तायुक्ताः तथा सुलभ मूल्यात्मकाः भारतीय औषधयः सुलभतया प्राप्यन्ते इति सन्धिपत्रे अपि हस्ताक्षरितानि कृतानि। प्रधानमन्त्री नरेन्द्र मोदी सोमवासरे लोकनायक जयप्रकाश नारायण चिकित्सालयं गत्वा राष्ट्रिय राजधान्यां संजाते वाहन विस्फोटनस्य पीडितान् अभ्यगच्छत्। भूटान देशस्य द्विदिनात्मक यात्रां समाप्य दिल्ल्याम् आगत्य प्रधानमन्त्री तत्क्षणमेव चिकित्सालयं गतवान्। श्रीमोदी व्रणितैः सह वार्तालापं कृत्वा तेभ्यः शीघ्रं स्वस्थतां प्रार्थयत्। चिकित्सालयस्य अधिकारिणः चिकित्सकाः च तान् परिस्थितिं सूचितवन्तः। सामाजिक अन्तर्जालपटलस्य एकस्मिन् सन्देशे श्रीमोदिना उक्तं यत् अस्य षड्यन्त्रस्य पृष्ठे ये सन्ति ते न्यायस्य समक्षे नयिष्यन्ते। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। विदेश मंत्री डॉ एस जयशंकर अद्य कनाडा देश से जी सप्त देशानां विदेश मंत्रिणां उपवेशनम् अतिरिच्य कनाडा देश से विदेश मंत्रिणा अनीता आनंदेन सह मिलितवान्। एकस्मिन् अन्तर्जालीय संदेशे डॉ जयशंकर अस्य आयोजनस्य कृते अनीता आनंदं प्रशंसितवान्। सममे उभयो देशयो मध्ये पारस्परिक संबंधा सुदृढा भवेयु इति आशा प्रकटिता। डॉक्टर जयशंकर मेक्सिको देश से विदेश मंत्रिणा डॉक्टर जुआन रामुल डेला फुएंते वर्येण सह अपि मेलनं विहितवान्। सहैव उभयो देशयो मध्ये व्यापार वाणिज्य स्वास्थ्यं विज्ञानं प्रौद्योगिकी चेत्यादिषु क्षेत्रेषु सहयोगं संवर्धनाय परिचर्चा जाता। ब्रिटेन देशस्य विदेश सचिवेन यवेट कूपर वर्यया सह सम्भाषयन् डॉक्टर जयशंकर द्विपक्षीय सम्बन्धेषु सकारात्मक प्रगतेः पुनः पुष्टि कृता। कार्यक्रमावधौ सः ब्राजील देशस्य विदेशमन्त्रिणा मौरो वियरा जर्मन देशस्य विदेशमन्त्रिणा जोहान वेटफुल दक्षिण अफ्रीका देशस्य विदेशमन्त्रिणा रोनाल्ड लामोला च सह मेलनं विहितवान्। अद्य प्रातः अभिनेता धर्मेन्द्रः चिकित्सालयात् स्वगृहं प्रति समागतः। ब्रीच कैंडी चिकित्सालयस्य एकः चिकित्सकः अद्य मुंबई नगरे वार्ताहरैः सह सम्भाषयन् अवदत् यत् 89 वर्षीय अभिनेतुः अग्रिमा चिकित्सा गृहे एव भविष्यति। धर्मेन्द्रस्य पारिवारिकजनैः एकस्मिन् आधिकारिक वक्तव्ये प्रख्यापितं यत् जनाः सार्वजनिकेषु माध्यमेषु तस्य गोपनीयतायाः सम्मानं कुर्वन्तु इति। परिवारः तेषां सुस्वास्थ्यस्य कामनायै दीर्घजीवनस्य शुभकामनायै सर्वेषां जनानां कृते कृतज्ञतां प्रकटितवान्। सेनाप्रमुखः जनरल उपेन्द्र द्विवेदी अद्य आधुनिक युगस्य कृते प्रौद्योगिक्याः लोकतन्त्रीकरणस्य भौगोलिक प्रसारस्य उपयोगस्य च आह्वानं कृतवान्। नवदिल्ल्यां संजाते दिल्ली रक्षा संवाद इति कार्यक्रमे सम्बोधयन् श्रीद्विवेदी महोदय अवदत् यत् भारतीय सेना मानव केन्द्रित प्रौद्योगिकी इत्यादिषु क्षेत्रेषु विचारं कुर्वन्ति।
4.0 when the AI quantum and all this being talked about, but the 5.0 has realized that the rebalancing is required to bring in the human element. That is, technology is there not to replace human but to support them. What it means, it's a melange of the ecosystem and the technology, both have to meet. Now why it is important for us, especially for the Indian Army, because as for the Mask of War book is concerned by Carl Bilder, it says the USPs which are there for the Air Force is of course the technology, and for the Navy its platform. But in case of army, it's always the word over is the human resource.
पञ्चविंशत्यधिकद्विसहस्रतमवर्षस्य साहित्यकादमी बालसाहित्यपुरस्कारः अस्य मासस्य चतुर्दशे दिनांके नवदिल्ल्यां प्रस्तूयते। बालसाहित्यविधायाः वार्षिकपुरस्कारान् साहित्यकादम्या अध्यक्षः माधवकौशिकः प्रदास्यति। संस्कृतिमन्त्रालयेन अद्य सूचितं यत् पुरस्कारविजेतृभ्यः कांस्यफलकं च 50,000 रूप्यकाणां धनराशि च दीयते इति। प्रधानमन्त्री श्रीनरेन्द्रमोदी भूटाननरेशेण चतुर्थ ड्रुक ग्याल्पो इत्यनेन सह कालचक्र शक्तीकरण समारोहस्य उद्घाटनम् अकरोत्। सहैव भूटानदेशस्य द्विदिवसीय राजकीय यात्रां समाप्य स्वदेशं प्रति समागतः। राष्ट्रपति द्रौपदी मुर्मू अद्य गैबोरोन नगरे बोत्सवाना देशस्य राष्ट्रपतिना डुमा बोको इत्यनेन सह विस्तृत